herkes acıya düşer karnıyla. Hara çay ki koi nirdharit kıymet hoti hai, dard ki kıymet çıkani padti hai. Prajatantr mein har ek ko alag alag tarike se sochne ka hak hai, us hak ka hame samman karna chahiye. जो सही लगता है मैं करता हूं, वो चाहे भगवान के खिलाफ हो, समाज के खिलाफ।